एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा सर्वकारेण समग्र कार्य सम्पादनम् परिणामयुतम् प्रभावकारी मापनयोग्यम् उत्तरदायी च सम्पादयितुम् अथ च नागरिक जीवने प्रत्यक्ष सुधारस्य आनयनस्य स्वरूपे रूपान्तरयितुम् परिणामे आधृतम् शासकीय प्रबन्धनम् क्रियान्वेतुम् घोषणा विहिता अस्ति परह्यस्तनेन मन्त्री परिषद उपवेशेन स्वीकृताम् शासकीय सुधार सम्बद्धाम् शतदिवसीय कार्यसूचीम् सार्वजनिक कुर्वता सर्वकारेण निर्वाचने सहभागिनाम् समेषाम् राजनीतिक दलानाम् घोषणापत्रेषु प्रतिबद्धता पत्रेषु वाक्पत्रेषु च समाविष्टान् क्रियान्वयन योग्यान् विषयान् समाविश्य राष्ट्रिय प्रतिबद्धता चापि निर्मास्यते इति ज्ञापितमस्ति परिणामे आधृतस्य शासकीय प्रबन्धनस्य क्रियान्वयनाय प्रतिमन्त्रालयेन सप्ताहनाम् दिनानाम् अभ्यन्तरे दशभिः प्रमुख कार्यैः तेषाम् क्रियान्वयनस्य समयसीम्ना क्रियान्वयकारिधिकारिणा प्रमुख कार्य सम्पादन सूचकेन च सहिता कार्ययोजना निर्मास्यते इति ज्ञापितमस्ति तासाम् कार्ययोजनाम् मासिक प्रगतिः प्रधानमन्त्री मन्त्री परिषदः कार्यालये प्रस्तुतव्या भवति तस्य च नियमित रूपेण अनुगमनम् मूल्यांकनम् सार्वजनिक रूपेण निरीक्षणम् च करिष्यते इति उल्लिखितम् वर्तते राष्ट्रिय स्वतन्त्र दलस्य वरिष्ठ नेतुः बालेन्द्र शाह विदस्य नेतृत्वस्य सर्वकारस्य प्रथमोपवेशेन शासकीय सुधार सम्बद्धाम् शतदिवसीय कार्यसूचीम् स्वीकर्तुम् निर्णीतम् आसीत् सा च कार्यसूची ह्य प्रधानमन्त्रिणः शाहभिदस्य सचिवालयेन सार्वजनिकृता वर्तते सार्वजनिकृतायाम् कार्यसूच्याम् राजनीतिक संस्थागत सुधारस्य निर्वाचन प्रणाल्याः सुधारस्य विषये अन्येषु विषयेषु च संविधान संशोधनार्थम् राष्ट्रिय सहमतिम् निर्मातुम् प्रधानमन्त्री कार्यालयेन सप्ताहनाम् दिनानाम् अभ्यन्तरे संविधान संशोधन विमर्शन पत्रम् निर्मातुम् कार्यदल संघटयिष्यते इति उल्लिखितम् वर्तते सर्वकारेण जेन्जी युवा आन्दोलनस्य क्रमे गत भाद्रस्य चतुर्विंशे दिवसे घटितायाः घटनायाः सत्य तथ्य अनुसन्धातुम् सप्ताहनाम् दिनानाम् अभ्यन्तरे उच्चस्तरीय अनुसन्धान समितिः संघटयिष्यते समित्यै घटनायाः सम्बद्धानि सम्पूर्ण विवरणानि संकलय तेषाम् विश्लेषणम् कर्तुम् दायित्ववाहि पक्षम् निर्धार्य निश्चित समयसीम्नः अभ्यन्तरे प्रतिवेदनम् प्रस्तोतुम् कार्यादेशस्य प्रदानाय सर्वकारेण निर्णीतम् वर्तते एवमेव देशे व्याप्तस्य भ्रष्टाचारस्य सम्पदः संगोपनस्य च प्रवृत्तेः दण्डहीनतायाश्च अन्ताय पञ्चदशानाम् दिनानाम् अभ्यन्तरे एकामधिकार सम्पन्नाम् सम्पदः अनुगमनानुसन्धान समितिम् च संघटयितुम् निर्णीतमस्ति समित्या चरणद्वय सार्वजनिक पदधृतवताम् प्रमुख राजनीतिक दलानाम् पदाधिकारिणाम् उच्च पदस्थ कर्मचारिणाम् च सम्पदः विवरणस्य संकलनम् प्रमाणीकरणम् अनुसन्धानम् च करिष्यते इति उल्लिखितम् वर्तते चीनदेशस्य प्रधानमन्त्रिणा ली झ्याङ इत्यनेन नेपालस्य प्रधानमन्त्रिपदे नियुक्ताय बालेन्द्र शाहाय वर्धापनानि विज्ञाप्य द्विपक्षीयस्य सहकार्यस्य कृते प्रतिबद्धता व्यक्ता अस्ति प्रधानमन्त्रिणे शाहाय वर्धापनम् सन्देशम् सम्प्रेष्य चीनदेशस्य प्रधानमन्त्री झ्याङ नेपाल सर्वकारस्य सुशासनस्य प्रयासे चीनदेशस्य समर्थनम् भविष्यति इति ज्ञापयन् नेपालस्य स्वतन्त्रतायाः सार्वभौमिकतायाः भौगोलिकाखण्डतायाश्च कृते नैरन्तरेण सहयोगाय प्रतिबद्धताम् अभिव्यनक् प्रधानमन्त्रिणा बालेन्द्र शाह विधेन भारतस्य प्रधानमन्त्रिणम् प्रति पाकिस्तानदेशस्य राष्ट्रपतिम् प्रति प्रधानमन्त्रिणम् च प्रति कृतज्ञता ज्ञापयता तैस्सह सहकार्यम् विधास्यते इति प्रतिबद्धता व्यक्ता अस्ति प्रधानमन्त्री शाह भारतस्य प्रधानमन्त्रिणः नरेन्द्र मोदिनः पाकिस्तानदेशस्य राष्ट्रपतेः आसिफ अली जरदारी इत्यस्य प्रधानमन्त्रिणः शहबाज शरीफ इत्यस्य च सकाशात् प्राप्तस्य वर्धापन सन्देशस्य कृते सामाजिक सञ्जालस्य माध्यमेन कृतज्ञताम् विज्ञाप्य सहकार्यस्य प्रतिबद्धताम् अभिव्यनक् प्रधानमन्त्री शाह भारतदेशस्य प्रधानमन्त्रिणे मोदिने स्नेहाय शुभकामनायै च धन्यवादम् विज्ञाप्य द्वयोः देशयोः सम्बन्धम् जनतायाः समृद्धये च सहकार्यस्य इच्छाम् व्यक्तवान् अस्ति एवमेव प्रधानमन्त्री शाह पाकिस्तानदेशस्य राष्ट्रपतये प्रधानमन्त्रिणे च द्वयोर्देशयोः मैत्री सम्बन्धस्य प्रति वेशित्व सम्बन्धस्य च दृढतया सहैव द्विपक्षीयस्य क्षेत्रीयस्य च सहकार्याय कार्यम् कर्तुम् तत्परताम् प्रादर्शयत् नेकपा एमाले दलिन दलाध्यक्षम पूर्व प्रधानमन्त्रीणम च केपी शर्मा ओलिनम नेपाली कांग्रेस दलस्य नेतारम पूर्व गृहमन्त्रीणम रमेश लेखकञ्च तत्कालम उन्मोक्तुम अभियाचितम अस्ति। च्यासलवर्तिनी दल केन्द्रीय कार्यालय ह्य उपविष्टेन एमाले दलस्य सचिवालय उपवेशेन द्वयोरेव नेतृः तत्कालमेव मुक्तये याचनार्थं निर्णीतम् अस्तीति दलस्य महासचिव शंकर पोखरेलः असूचयत्। उपवेशेन द्वयोरेव नेतृः निग्रहणस्य निन्दां विदधत निग्रहणमेतत् लोकतन्त्रस्य विधेय शासनस्य च विपरीतम् अस्ति इति निश्चितम् वर्तते। उपवेशेन जेएनयूनाम् आन्दोलनस्य निष्पक्षाय न्यायिकाय चानुसन्धानाय सर्वोच्च न्यायालयस्य कार्यरत न्यायाधीशस्य संयोजकत्वे उच्चस्तरीय अनुसन्धान आयोगं संघटयितुं च याचना विहिता अस्ति। गत भाद्र मासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः जेएनयूनाम् आन्दोलनस्य अनुसन्धानं विधातुं पूर्व न्यायाधीशस्य गौरी बहादुर कार्किणः संयोजकत्वे संघटितेन आयोगेन प्रदत्तस्य परामर्शस्य आधारेण ह्य प्रातः नेकपा एमाले दलस्य अध्यक्षः पूर्व प्रधानमन्त्री च ओली नेपाली कांग्रेस दलस्य नेता पूर्व गृहमन्त्री च लेखकश्च निगृहीतौ स्तः। अत्रान्तरे नेकपा एमाले दलेन दलाध्यक्षस्य ओलिनः निग्रहणस्य विरोधे आराष्ट्रं विरोध प्रदर्शनं विहितम् अस्ति। अत्रान्तरे नेपाली कांग्रेस दलेन नेकपा एमाले दलस्य अध्यक्षस्य पूर्व प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः पूर्व गृहमन्त्रिणः रमेश लेखकस्य च निग्रहणस्य पश्चात्तन घटनाक्रमस्य विषये स्वकीय धारणा सार्वजनिकृता अस्ति। गृहमन्त्री सुधन गुरूङ विधेयक क्रियान्वयने दृढतापूर्वकं कार्यं कर्तुं निर्देशति। ललितपुरस्य जावलाखेलवर्तिनी जनपद प्रहरी परिसरस्य निरीक्षणस्य क्रमे गृहमन्त्री गुरूङ पारदर्शितया कार्यं सम्पादयितुं निरदिशत्। संचार सूचना प्रविधि मन्त्री डाक्टर विक्रम तिमिलसिन्हा जनतायै परिवर्तनस्य अनुभूतेः दापनत्वेन कार्यं कर्तुं कर्मचारिणः निर्दिशति। यो मन्त्रालयस्य कार्यविषये जिज्ञासमानः मन्त्री डाक्टर तिमिलसिन्हा संचार मन्त्रालयः सर्वकारस्य नागरिकै सह प्रत्यक्षं सम्बद्ध मन्त्रालयो वर्तते इति चर्चयन् जनतायै लाभं प्रतिफलं च प्रदातुं कार्यं कर्तुं अनुरुणत्।